एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रभाषकः ध्रुव भट्टराई प्रधानमन्त्री नेपाली कांग्रेस दलस्य सभापतिश्च शेरबहादुर देउवा संविधानस्य लोकतन्त्रस्य च रक्षायै स्थानीय तनाव निर्वाचने वास्तविक प्रतिनिधिन् प्रचेतुम् आह्वयति यो धनगढ़ी स्थाने आयोजिताम् नैर्वाचनिक सभाम् सम्बोधयन् प्रधानमन्त्री देउवा अवदत् संघीय प्रादेशिक सर्वकारय सबलीकरणाय स्थानीय तनाव निर्वाचने वास्तविक प्रतिनिधिन् चयनम् प्रतिनिधिनां चयनम् आवश्यकम् वर्तते प्रधानमन्त्री देउवा सुदूर पश्चिमस्य शिक्षा स्वास्थ्य कृषि पर्यटन जलविद्युत पूर्वाधार प्रवृत्ति क्षेत्राणाम् विकासाय आत्मनिर्भरतया क्रियाशीलता स्थिति अवोचत प्रधानमन्त्री देउवा कांग्रेस दलस्य पक्षतो विद्रोही प्रत्याशितां पुरस्कृत सर्वान् प्रत्याशिन स्वप्रत्याशितां प्रत्यावर्तयितुम् निर्दिशन् कथित स्थानेषु विद्रोही प्रत्याशिनां समस्यां सत्यामपि इयं शीघ्रं समाधास्यति इति विश्वासं व्यक्तवान् तत्पूर्वम् प्रधानमन्त्रिणा देउवा विधेन सुदूर पश्चिम प्रदेशस्य निर्वाचन सुरक्षा व्यवस्था विषय ज्ञातम् आसीत् नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति एमाले दलम शान्तिपूर्णस्य भयरहितस्य च निर्वाचनस्य पक्षे वर्तते नेकपा एमाले दलेन गतदिने पोखरायम् आयोजितायम् नैर्वाचनिक सभायम् अध्यक्ष ओली जनताया प्राप्त मतम् संरक्ष्य मतगणनाम् यावत् नेतुम् दलस्य कार्यकर्तृणि निरदिशत् अध्यक्ष ओली निर्भयम् निष्पक्षम् च निर्वाचनम् कारयितुम् निर्वाचन आयोगमपि अनुरुणत् नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः निगदति पञ्चदलीय गठबन्धनेन देश राजनीतिक दुर्घटना तु रक्षित भविष्यतेऽपि रक्षिष्यते च कैलाली जनपदस्य धनगढ़ स्थाने ह्य आयोजिताम् नैर्वाचनिक सभाम् सम्बोधयन् अध्यक्ष प्रचण्डः लोकतान्त्रिक वाम गठबन्धनस्य रूपेण आत्मनाम निर्वाचनाय अग्रे वर्धनस्य कारण जनतायाम् उत्साह वर्धितो स्थिति अकथयत् नेपाली कांग्रेस दलेन स्थानीय तनाव निर्वाचने सहभागितया स्वमताधिकारम् उपयुज्य स्थानीय विकासस्य अग्रे प्रवर्धकान् नारीकाणां गृहद्वारेषु सेवा प्रापकान् च जनप्रतिनिधिन् प्रचेतुम् अनुरुद्धम् वर्तते दल कार्यालय आयोजिते पत्रकार सम्मेलने दल प्रवक्ता डाक्टर प्रकाश शरण महत कथम् विधेनापि प्रलोभनेन विना त्रास तर्जनीषु न निपत्य मतम् दातुम् सर्वान् अनुरुन्धानः भयरहित वातावरणे निर्वाचन सम्पादनस्य विषय दलम् विश्वस्तम् स्थिति अकथयत् प्रवक्ता डाक्टर महत चितवने विहिताम नेपाली कांग्रेस दलस्य प्रदेश प्रतिनिधि अनिल परियारित्यस्य हत्याम निन्दन दोषी व्योद्दण्डनम् अभ्याचत असौ रूकुम पश्चिम बाजुरा सप्तरी सिन्धुपाल्चोक नुवाकोट पाण्डुसेन प्रवृत्ति स्थानेषु प्रकीर्ण संघर्षस्य घटना घटिता इति ब्रुवन् निर्भयम् निर्वाचन सम्पादनस्य वातावरण निर्मातुम् दलस्य पक्षत सर्वकारम् अनुरुणत प्रवक्ता डाक्टर महत अवोचत दलेन स्थानीय सर्वकारस्य नारीकाणाम् सेवकस्य रूपेण रूपान्तरण विधास्यते जनतामुखी नीति उत्तरदायी शासन प्रणाल्याश्च प्रवर्धन पुरस्सरम् सर्वेभ्य शिक्षाय शिल्पमूलक प्रशिक्षणस्य च अवसरस्य प्रदास्यते सर्वकारेण स्थानीय तनाव निर्वाचनस्य मतदानस्य दिने वैशाखस्य त्रिंशे दिवसे शुक्रवासरे सार्वजनिकावकाशम् प्रदातुम् निर्णीतम् अस्ति गत रविवासरे उपविष्टेन मन्त्रिपरिषद उपवेशन एवं निर्णीतम् अस्ति गृहमन्त्रालयस्य प्रवक्त्रा फणीन्द्रमणि पोखरेलेन प्रकाशितम् विज्ञप्तौ आगामिनि शुक्रवासरे आ नेपालम् सर्वेषु सर्वकारीय कार्यालयेषु सार्वजनिक निकायेषु च अवकाश प्रदत्तो स्थिति उल्लेखितम् वर्तते निर्वाचन आयोगेन निर्वाचनं स्वच्छं निष्पक्षं भयरहितं च सम्पादयितुं निर्वाचनस्य दिनं वैशाखस्य त्रिंशं दिवसं यावत् प्रचलित विधे निर्वाचनाचार संहितायाश्च व्यावहारिक रूपेण क्रियान्वयनं कर्तुं कारयितुं च सर्वे जनपद प्रशासन कार्यालय सुरक्षा निकायाश्च निर्दिष्टा सन्ति ह्यः आयोजिते पत्रकार सम्मेलने आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेल अद्य रात्रौ द्वादशवादनात् मतदान कार्यस्य असमाप्तिं यावत् निर्धारित क्षेत्रेषु मादक पदार्थानां विक्रय वितरणं सेवन कार्यं च निषिद्धुं निर्णीतम् अस्तीति अज्ञापयत् पत्रकार सम्मेलने आयोगस्य प्रवक्ता पौडेलः सप्तसप्तति जनपदानां मुख्य निर्वाचनाधिकृतानां कार्यालयेषु षट्सप्तत्यधिक षट्शति निर्वाचनाधिकृत कार्यालयेषु सप्तसु प्रदेश निर्वाचन कार्यालयेषु सप्तत्यां जनपद निर्वाचन कार्यालयेषु च मतदातृ शिक्षा कार्यक्रमस्य अन्तर्गतं श्वः परश्वश्च अष्टाविंशे ऊनत्रिंशे च दिवसयोः मतदानस्थलेषु सम्बद्ध मतदानाधिकृतानां नेतृत्वे मतदान प्रक्रियाय ज्ञापनाय व्यवस्था विहिता स्थिति ज्ञापिता भवान् स्थानीय स्थलान् निर्वाचनाय मतदानाधिकृतेन मतपत्रे कृष्ण रक्त नील हरितासु मसिषु काञ्चित मसिं उप्रयुज्य लेखन्या हस्ताक्षरस्य व्यवस्थां विधातुं सर्वे मुख्य निर्वाचनाधिकृता निर्वाचनाधिकृताश्च आयोगेन निर्दिष्टाः सन्ति। एवमेव मतदानस्य दिने प्रातः सप्तवादनात् मतदान कार्यस्य असमाप्तिम् यावत् मतदान केन्द्रेषु वर्षातो मतदान कार्यस्य तत्पश्चात् विधास्यमानाय मतगणनाय कार्यस्य च अप्रभावकारित्वेन रक्षणाय निर्वाचन सामग्रीणां सुरक्षणाय च आवश्यकानां पटवेशमद्याच्छादनवस्तूनां व्यवस्थाय आयोगेन सम्बद्ध निर्वाचनाधिकृताः मतदानाधिकृताश्च निर्दिष्टाः सन्ति। अद्य रात्रौ द्वादशवादनात् निर्वाचनस्य मौनावधि प्रारम्भमाणो वर्ततीत्यतः प्रत्याशिनां मित्राणां फेसबुक ट्विटर टिकटक प्रवृत्तिषु सामाजिक सञ्जालेषु विद्यमानानि निर्वाचनाचार संहिता विपरीतानि चित्राणि लेख्य सामग्री च अपाकर्तुम् तथाविध नूतन सामग्री सामाजिक सञ्जालेषु न स्थापयितुम् च आयोगेन सर्वे सम्बद्ध जना निर्दिष्टाः सन्ति। वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमानं स्थानीय स्तराणां निर्वाचनं निर्विवादं स्वतन्त्र रूपेण च सम्पादयितुं निर्वाचन आयोगेन 53 अधिक 7 सदस्य एव स्थानीय स्तराणां मतगणना स्थलेषु सीसी क्यामेरा विधस्य निकटदर्शी चित्रांकनोपकरणस्य व्यवस्था विहिता वर्तते। मतगणनाय क्रमे सम्भाव्यानां अवांछित गतिविधीनां निरोधनस्य विवाद न्यूनीकरणस्य च उद्देश्येन व्यवस्था विधीयमान स्थिति निर्वाचन आयोगो ज्ञापयति। 50 अधिक 7 पालिकासु उपकरणमिदं संयोजितम् अवशिष्टासु पालिकास्वपि अद्ययावत् संयोज्यति इति निर्वाचन आयोगेन ज्ञापितमस्ति। भारतेन सह सम्पृक्त सीमस्य 70 जनपदस्य सम्पूर्ण प्रवेशबिन्दव अद्य तु 72 घण्टानां कृते पिधापिता सन्ति। अस्यैव वैशाखस्य 30 दिवसे सम्पत्स्यमानं स्थानीय स्तराणां निर्वाचनं स्वतन्त्रे निष्पक्षे भयरहिते च वातावरणे सम्पादयितुम् अद्य मंगलवासरस्य रात्रौ द्वादशवादनात् आगामिन शुक्रवासरस्य रात्रौ द्वादशवादनं यावत् सीमया विधीयमानं गमनागमनं पिधाप्यते इति 70 जनपद प्रशासन कार्यालयो ज्ञापयति। एवमेव मोरङ जनपद प्रशासन कार्यालयेन ह्य सूचना प्रकाश्य अद्य रात्रौ द्वादशवादनात् वैशाखस्य 30 दिवसस्य रात्रौ द्वादशवादन पर्यन्तं नेपाल भारत सीमा पिधाप्यते इति ज्ञापितं वर्तते। सर्वोच्च न्यायालयेन पूर्व प्रधान न्यायाधीश पूर्व न्यायाधीशाश्च सम्मानिताः सन्ति। विधि दिवसस्य अवसरे सर्वोच्च न्यायालयेन ह्य 4 पूर्व प्रधान न्यायाधीश 11 न्यायाधीशाश्च सम्मानिताः सन्ति। विधि दिवसस्य अवसरे सर्वोच्च न्यायालयेन जलपान कार्यक्रमश्च आयोजित आसीत्। जलपान समारोहे राष्ट्रपति विद्यादेवी भण्डारिण उपराष्ट्रपति नन्दबहादुर पुन इत्यस्य अन्य महानुभावानां च उपस्थिति आसीत्।